एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। मिटर ब्याज नाम्ना चक्रवृद्धि धरेन पीडितानाम् जनानाम् सर्वकारस्य च मध्ये नवसूत्रात्मक सहमतेर धरणेन सहैव आन्दोलनम् स्थगितमस्ति। गताषाढमासस्य पञ्चविंशे दिवसे जनकपुरस्य तृतीयागाछी स्थानात् प्रारब्धस्य पदयात्राभियानस्य बारा जनपदस्य निजगढ स्थानम् प्राप्तिः अनन्तरम् आषाढमासस्य द्वात्रिंशे दिवसे गृहमन्त्रिणः सुदन गुरूङ इत्यस्य पीडित प्रतिनिधिनाम् च मध्ये काष्ठमण्डपे वार्ता समूह संघटनाय सहमति सम्भूता आसीत्। सहमतिरनुसारेण परह्य बृहस्पतिवासरे काष्ठमण्डपे आगतस्य पीडित पक्षस्य वार्ता समूहस्य प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य सचिवस्य पुष्कर सापुटाभिदस्य नेतृत्वस्य सर्वकारीय समूहस्य च मध्ये सम्भूतायाम् वार्तायाम् नवसूत्रात्मिका सहमति सम्भूता अस्ति। संविदापत्रे सर्वकारीय वार्ता समूहस्य पक्षत सचिवेन सापुटाभिदेन पीडित पक्षस्य पक्षत अवधेश कुशवाहा इत्यनेन च हस्ताक्षराणि विहितानि सन्ति। सहमतेरनुसारेण सर्वकारेण मिटर व्याज नाम चक्रवृद्धि धनम् आर्थिकापराध मत्वा अस्याः कुप्रथायाः उन्मूलनस्य घोषणार्थम् आगामिन्यां मन्त्री परिषदि प्रस्तावो निश्चिते, ततः कृत्रिम प्रमाणपत्राणि, दृष्टिबन्धकानि, बाध्यकारिणी धनादेश प्रपत्राणि च स्वतो निरस्तानि भविष्यन्ति। प्रधानमन्त्रिणा बालेन्द्र शाहेन स्वदेशे उत्पादितानाम् उपानहाम् निर्यात प्रवर्धने सर्वकारेण आवश्यकम् सहजीकरणम् करिष्यते इति प्रतिबद्धता व्यक्ता अस्ति। प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य फुटवेयर म्यानुफ्याक्चर्स एसोसिएशन अफ नेपाल इति उपानहाम् उत्पादन संस्थायाः प्रतिनिधिभिस्सह सम्बुते विमर्शने प्रधानमन्त्री शाह उपानहस्य आयातस्य निरुत्साहनाय वृत्त्युपार्जनानाम् सर्जनाय च आवश्यकः सहयोगो करिष्यते इति प्रतिबद्धतां व्यक्तवान्। प्रधानमन्त्री शाह त्रयाणामेव सर्वकाराणां समन्वयेन पादत्राणाम् उपानहादीनां च उत्पादन सम्बद्धस्य शिल्पगत प्रशिक्षणस्य संचालनाय उपानहां प्रवर्धने विकासे च नैजक्षेत्राय प्रोत्साहनं दीयते इति अवोचत्। विमर्शने संस्थायाः पदाधिकारिभिः सदस्यैश्च विभिन्नेभ्य सीमक्षेत्रेभ्य जायमानं चौरेण उपानहां देशे प्रवेशनस्य कार्यं नियन्तुम् करसिम्नो बहिर्भूतानि राष्ट्रियान्तराष्ट्रियोत्पादनानि विधे करसिम्नि च आनेतुम् प्रधानमन्त्रिणो ध्यानाकर्षणम् विहितमासीत्। प्रतिनिधिसभायाः महिला सामाजिक विषय समित्या राष्ट्रिय समावेश आयोगेन सह संविधानेन परिकल्पितायाः सर्वत्र क्षेत्रेषु समावेशी व्यवस्थायाः विषये विमृष्टमस्ति। समितेः ह्यस्तनोपवेशे सांसदैः समावेश आयोगेन लैंगिक यौनिक अल्पसंख्यकानाम् अपाङ्गयुतानाम् ज्येष्ठ नागरिकाणां च नागरिकाणां कृते प्रभावपूर्णं कार्यं कर्तुं शक्तं नास्तीति उक्तमासीत्। उपवेशे राष्ट्रिय समावेश आयोगस्य कार्यवाहकेन अध्यक्षेण हरिदत्त जोशिना आयोगस्य अन्तर्गतानाम् एकादशानां कार्यक्षेत्राणाम् अध्ययनम् अनुसन्धानं विधाय क्रियान्वयनाय सर्वकारस्य समक्षं परामृष्टं, सदपि क्रियान्वयनं सम्भूतं नास्तीति उक्तमासीत्। नेपालस्य द्वाचत्वारिंशदुत्तरैकशतसंख्यातासु जनजातिषु चतुस्सप्ततिर्जन जातिनां राज्यस्य कस्मिन्नपि निकाये प्रवेशु नास्तीति विषयस्य प्रकाशनानन्तरम् एतासां जातिनां पृथक् समूहं निर्मातुं सर्वकाराय परामृष्टमस्तीति तदवसरे अध्यक्षः जोशी अज्ञापयत्। ललितपुरस्य जावलाखेलवर्तिनी मुख्य पशुपक्षीशाला ह्यस्तन दिवसार्चनानां कृते पुनः उद्घाटिता अस्ति। काक, गृध्र, हंस प्रभृतिषु पक्षिषु बर्ड फ्लू इति पक्षीजन्य रोगस्य संक्रमणस्य पुष्टेरनन्तरं पशुपक्षीशालेयम् आषाढमासस्य पञ्चमात् दिवसात् पिहिता आसीत्। तत्र वातावरणीय निदर्शनस्य परीक्षणे पक्षी संक्रमणजन्य विषाणुः अदर्शनात् पशुपक्षीशालेयम् पुनः संचालने आनीता अस्ति। विशेष न्यायालयेन पूर्वोप प्रधानमन्त्री एमाले दलस्योपाध्यक्षः विष्णु पौडेलः साधारणोपस्थित्यां संस्थाप्य प्रहरी नियन्त्रणाद् उन्मोक्तुम् आदिष्टमस्ति। विशेष न्यायालयस्य न्यायाधीशानां नारायण प्रसाद पौडेलस्य, दिल्ली रत्न श्रेष्ठस्य, विदुर कोइरालाभिदस्य च न्यायपीठेन पौडेलं साधारणोपस्थित्यां संस्थाप्य प्रहरी नियन्त्रणाद् उन्मोक्तुम् आदिष्टमस्ति। सम्पद शुद्धिकरणानुसन्धान विभागेन परह्यो बृहस्पतिवासरे पौडेलस्य विरूद्धे सम्पद शुद्धिकरण सम्बद्धि अभियोगी अभियोगपत्रं पञ्जीकारितम् आसीत्। ह्यस्तन दिवसस्य विमर्शनानन्तरं न्यायालयेन पौडेलं साधारण उपस्थित्यां संस्थापयितुं विहितेन आदेशेन सहैव पौडेलः प्रहरी नियन्त्रणात् मुक्तोऽस्ति। नेपाल टेलिभिजनस्य सैटेलाइट ब्याण्डविड्थ इति भूपग्रह क्रयण सम्बद्धानुसन्धानाय संघटितया समित्या सर्वकारस्य समक्षं प्रतिवेदनं प्रस्तुतमस्ति। समित्या ह्य सूचना संचार मन्त्रिणः डॉ विक्रम तिमिलसेनाभिदस्य समक्षं प्रस्तुतेन प्रतिवेदनेन विभिन्नेषु समयेषु भूपग्रह क्रयण सम्बद्ध संविदा विधि विपरीतं कार्यं प्रक्रियागता त्रुटि वित्तीयानुशासनस्योल्लंघनं संस्थागता आर्थिक हानि चेत्यादीनि गभीर प्रकृतिकानि स्खलनानि विद्यन्ते इति निष्कर्षः प्रकाशितोऽस्ति। सर्वकारीय सेवातो निवृत्ताः सम्प्रति अनुबन्धन सेवायां क्रियारताः कर्मचारिणः सर्वकारीय सेवातः पदमुक्ताः विहिताः वर्तन्ते। भूमि व्यवस्था सहकारी संघे विषय सामान्य प्रशासन मन्त्रालयेन ह्य सर्वेभ्य सर्वकारीय निकायेभ्य सप्तसूत्रात्मकं परिपत्रं विधाय सम्प्रति अनुबन्धन सेवायां क्रियारतान् कर्मचारिणः अपर व्यवस्थाया असम्पादनं यावत् सम्बद्धेषु निकायेषु एव स्थापयितुं निर्दिष्टमस्ति। एतेषां जनानां एकीकृतं विवरणं भूमि व्यवस्था सहकारी संघे विषय सामान्य प्रशासन मन्त्रालयेन अद्यावधिकं करिष्यते। नवीनेषु निकायेषु सृष्टेषु पदस्थानेषु रिक्तेषु वा पदस्थानेषु अनुबन्धकार्यस्य आवश्यकतायां सत्यां नवीनान् जनान् न संयोज्य विभिन्नेषु निकायेषु स्थिताः कर्मचारिणः एव सामान्य प्रशासन मन्त्रालयस्य माध्यमेन अनुबन्ध सेवायां संयोजनीयाः। वाग्मती प्रदेश सर्वकारेण मन्त्री परिषदः कार्यविभाजनं विहितमस्ति। नेपालस्य संविधानस्य अनुसारेण मुख्यमन्त्रिणः इन्द्रबहादुर बानिया इत्यस्य परामर्शेन प्रदेश प्रमुखेण दीपक प्रसाद सापकोटाभिधेन मन्त्री परिषदः कार्यविभाजनं विहितमस्ति। वाग्मती प्रदेश सर्वकारेण श्रावण मासस्य प्रथम दिवसात् चतुर्दशानां मन्त्रालयानां संकुचनं कृत्वा अष्टसंख्यायां सीमितीकरणाय एतत्पूर्वमेव निर्णयो विहित आसीत्। नूतनार्थिक वर्षस्य प्रारम्भेण सहैव सुदूरपश्चिम प्रदेशे आयव्ययिक शून्यता सम्भूता अस्ति। प्रदेश सर्वकारेण प्रदेशसभायां प्रस्तुतस्य आयव्ययिकस्य पारितीकरणाभावानन्तरं प्रदेशेऽस्मिन् ह्यस्तन दिवसात् आयव्ययिकस्य विहीनावस्था उत्पन्ना अस्ति।